मंगलो भूमि पुत्रश्च ऋणहर्ता धनप्रदः स्थिरासनो महाकायः सर्वकाम विरोधकः लोहितो लोहिताक्षश्च सामगानां कृपाकरः धरात्मज कुजो भौम भूतिदो भूमिनन्दनः अङ्गारको यमश्चैव सर्वरोगापहारकः वृष्टिकर्तापहर्ता च सर्वकामफलप्रदः एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् धरणी गर्भसंभूतं विद्युत्कांति समप्रभं कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहं स्तोत्रमंगा कस्यैत पठनीयं सदा नृभिः न तैषां भौमजा पीडा स्वल्पापि भवति क्वचित् अङ्गारक महा भगवन् भक्तवत्सल त्वां नमामि ममाशेष गुणमाशु विमोचय ऋणरोगादि दारिद्र्यं भयक्लेशमनस्तापा नशन्तु मम सर्वदा अतिवक्रदुराध्यक्ष भोगमुक्तजितात्मना तुष्टो ददासि साम्राज्यम् रुष्टो हरसि तत्क्षणात् विरञ्चि शक्रविष्णूनां मनुष्याणां तु का कथा तेन त्वं सर्वसत्येन ग्रहरा महाबलः पुत्रान् देहि धनं देहि त्वामस्मि शरणाङ्गतः ऋणदारिद्र्यदुःखेन शत्रूणाञ्च भयात्ततः एभिर्द्वादशभिः श्लोकैर्यस्तु वे भार्गव प्रोक्तं ऋणहर मंगलस्तोत्रं संपूर्ण।